सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः।
ॐ शान्ति शान्ति शान्तिः। भगिनी मां सूचितवती यत् तद्विषये न पठितवन्तः, अतः यत् तद्विषये अध्ययनं कुर्मः। यत् तत् य पुल्लिङ्गरूपमस्ति, यः सः, यः सः स्त्रीलिङ्गं रूपमस्ति, या सा निपुंसकलिङ्गं रूपमस्ति, यत् तत्। यः द्वारे स्थितवान् सः मम अग्रजः। यः द्वारे स्थितवान् सः द्वारे स्थितवान् सः द्वारे तिष्ठति। यः द्वारे तिष्ठति सः मम अग्रजः। सः तिष्ठति, सः कुत्र तिष्ठति? द्वारे तिष्ठति। सः मम अग्रजः। यः द्वारे तिष्ठति सः मम अग्रजः। या दीर्घवेणी। मम अनुजा दीर्घवेणी। मम अनुजा दीर्घवेणी। या दीर्घवेणी सा मम अनुजा। या प्रार्थनां गायति सा मम अनुजा। या रक्तं शाटिकां धृतवती सा मम अनुजा। यत् निपुंसकलिङ्गे यत् पत्रं प्राप्तं, यत् पत्रं प्राप्तं तत् मम अस्ति। पत्रमस्ति, पत्रं प्राप्तमस्ति, यत् पत्रं प्राप्तमस्ति तत् मम अस्ति, तत् पत्रं मम अस्ति। यत् पत्रं प्राप्तं तत् मम अस्ति। या क्षम्यताम्, इदानीम् अहम् एकमेकं शब्दं वदामि। औषधमस्ति कपाटिकायाम् अस्ति, औषधमस्ति कपाटिकायाम् अस्ति, यत् औषधं कपाटिकायाम् अस्ति तत् मम अस्ति। क्षीरमस्ति शीतपेटिकायाम् अस्ति, क्षीरमस्ति तत् अस्तु। सङ्गीता भगिनी वदतु, वाक्यं वदतु। क्षीरमस्ति शीतपेटिकायाम् अस्ति।
यत् यत् क्षीरम् अस्ति तत् रिवर्स् वे यत् यत् शीतपेटिका अस्ति तत्र तत् क्षीरमस्ति। रिवर्स् हो गया।
यत् यत् औषधं कपाटिकायाम् अस्ति, यत् औषधं कपाटिकायाम् अस्ति तत् औषधं मम अस्ति।
यत् यत् शीतपेटिका क्षीरमस्ति तत् शीतपेटिका मम अस्ति, मम अस्ति।
क्षीरमस्ति क्षीरं शीतपेटिकायाम् अस्ति, यत् क्षीरं शीतपेटिकायाम् अस्ति तद् क्षीरं मम अस्ति। ओ यत् यु कुड् से चायार्थम् अस्ति, बालिकानां कृते अस्ति। यत् चिन्तयामि. दर्पणः अस्ति, दर्पणः अस्ति, दर्पणः अस्ति, आपणः अस्ति. विमला भगिनि, दर्पणः अस्ति, आपणः अस्ति.
यः दर्पणः अस्ति सः आपणे यः दर्पणः अस्ति सः दर्पणः आपणतः आनीतवती.
समीचीनं. यः दर्पणः अस्ति सः दर्पणः आपणन्तः आनीतवती क्रीतवती. अस्तु, धनमस्ति. सङ्गीताभगिनी अस्ति, धनमस्ति, स्यूते धनमस्ति. यत् धनं सङ्गीताभगिन्या स्यूते अस्ति तत् धनं मम अस्ति.
भगिनी धनं ददातु अनुराधभगिन्या कृते.
चित्रमस्ति, भीतिः अस्ति, भीतिः अस्ति, चित्रमस्ति. यत् चित्रं भीत्याम् अस्ति तत् चित्रम् अहं लिखितवती.
भीत्यां अर्थं किं?
वाल्, वाल्. यत् चित्रं भीत्याम् अस्ति तत् चित्रम् अहं लिखितवती. अस्तु, अन्ये कोऽपि फेनकमस्ति, फेनकमस्ति. स्नानगृहमस्ति, फेनकमस्ति, स्नानगृहमस्ति. सविता भगिनि, कृपया.
हरि ओम्, हरि ओम् भगिनि. यत् फेनकं स्नानगृहे अस्ति तत् मम अस्ति.
यत् फेनकं स्नानगृहे अस्ति तत् मम अस्ति. अस्तु, फलमस्ति, फलमस्ति, कपाटिका अस्ति. हेमा भगिनी,
यत् फलम् अस्ति, यत् फलं पेटिकायाम् अस्ति तत् फलं मम अस्ति.
अस्तु, यत् पत्रं उत्पेटिकायाम् अस्ति तत् पत्रम् अहं लिखितवती. यत् पत्रं, यत् फलं, यत् क्षीरं, यत् औषधं, यत् धनं. कोऽपि अन्य निपुंसकलिङ्गे भवती, अहं हेमभग्न्या, ज्योत्स्नभग्न्या न पृष्टवती. द्वारमस्ति, द्वारमस्ति, शयनगृहम् अस्ति. हेमभगिनी कृपया वदतु. द्वारमस्ति, शयनगृहम् अस्ति.
यत् द्वारं शयनगृहे अस्ति तत् द्वारम्
उद्घाटयतु. व्यजनमस्ति, व्यजनमस्ति, शयनगृहम् अस्ति. ज्योत्स्ना भगिनि, व्यजनमस्ति, शयनगृहम् अस्ति. व्यजनं, शयनगृहं.
यत् व्यजनं शयनगृहम् अस्ति तत् अहं
निद्रां करोमि.
तत् अहं, केन् यू हेल्प् मी प्लीज़ भगिनि.
व्यजनमस्ति, शयनगृहमस्ति. व्यजनं, यत् व्यजनं शयनगृहे अस्ति तद् उद्घाटयतु. व्यजनं फेन् शयनगृहम्. your bedroom, the sleeping room, yat vyajnam shayan graham grahe asti. So that fan that is in your bed, not is in the bedroom, tad udghatayatu, switch it on.
उद्घाटयतु
क्षम्यतां भगिनि क्षम्यताम् उद्घाटयतु मीन्स् ओपन् द डोर् करेक्ट् स्विचिङ्ग् आन् सेम्
समथिङ्ग् आन् स्विच् आन्
सो यत् चषक जलम् अस्ति तत् अहं जलं पिबामि करेक्ट्
नो यत् तद् चषकः पुल्लिङ्गशब्दः अस्ति यः चषकः पुनः वदतु पूर्णं वाक्यं भगिनि किं
जलम् अस्ति तत् अहं जलं पिबामि
यत् जलं चषके अस्ति तद् अहं पिबामि यत् जलं चषके अस्ति यत् फलरसं चषके अस्ति यत् क्षीरं चषके अस्ति यत् चायं चषके अस्ति यत् या कोफी चषके अस्ति तत् अहं पिबामि मम अस्ति
भगिनि भवान् पिबतु इत्युक्ते अपि सम्यक् खलु या काफी कंसे अस्ति सा भवान् पिबतु भवती पिबतु
सो यत् अन्त अत्र प्रथमविभक्ति एव अहं उपयोगं कृतवती योजितवती किन्तु यत् तत् अन्य अपि विभक्त्याम् उपयुज्य वाक्यं रचितुं शक्नुमः यं फलं यं क्रीडं यं आसन्दं यं यं द्वारं क्षम्यतां यत् द्वारं यत् स्नानगृहं सम्यक् एव प्रथमा द्वितीयविभक्ति समानम् एव अस्ति तत् यम् आसन्दं यं चषकं यं करकं यं दीपं यं विद्युत्दीपं यं घटं यं मार्गं यं नलं यं चमसं यं करदीपम् पुल्लिङ्गशब्दे यं द्वितीयविभक्ति आगच्छति आसन्दः अस्ति चमसः अस्ति भवति यं चमसं भवान् आनीतवान् तम् अहम् इच्छामि यं चमसं भवान् आनीतवान् क्षम्यतां तं चमसम् इच्छामि तत्र द्वितीयविभक्तिः आगच्छति भवान् चमसम् आनीतवान् भवान् यं चमसम् आनीतवान् तम् अहम् इच्छामि अस्तु, अहम् एकमेकं वाक् शब्दं वदामि. चषकं, चमसं द्वितीयविभक्ति, यं चमसं, नो चषकं. विम्ला भगिनी एकं वाक्यं वदतु कृपया सर्वेषां कृते.
यं यं चषकं द्वितीयविभक्ति, ओके, यं चषकं
तत्र अस्ति.
यं चषकं तत्र अस्ति, तं भवत्याः कृते अस्ति.
यं च समीचीनम्. ओ तम् आनयतु.
विमला भगिनी एकवारं कृपया वद, एकवारं पुनः वदतु.
यं चषकं उत्पीठिकायाम् अस्ति, तं भवत्याः कृते अस्ति.
यं चमसं पेटिकायाम् अस्ति, चमसः अस्ति पेटिकायाम् अस्ति, चमसः पेटिकायाम् अस्ति, प्रथमविभक्ति आगच्छति तत्र भगिनि. भवान् चमसम् आनीतवान्. चमसः अस्ति, चमसः पेटिकायाम् अस्ति.
उत्पीठिकायां न आगच्छति वा?
चषकः अस्ति, चषकं ददातु, भवान् चषकं ददातु.
भवान् यं चषकं ददातु.
ददातु, आनयतु.
यं चषकं भवान् स्वीकरोतु. यं चषकं भवान् स्वीकरोतु.
तं
यं चषकं भवान् स्वीकरोतु, तम् अहं ददामि. सम्यक् वा?
यं चषकं स्वीकरोतु, तं व्याकरणदृष्ट्या तु सम्यक् अस्ति. अस्तु, आसन्दः अस्ति, अनुजः आसन्दम् आनयति, अनुजः आसन्दम् आनयति. तत्र अहम् आसन्दं स्वीकरोमि, अनुजा आसन्दम् आनयति, अहं आसन्दं स्वीकरोमि.
यम् अनुजः आसन्दम् आनयति, तम् अहं स्वीकरोमि.
अस्तु भगिनी, लेखनी अस्ति. लेखनी अस्ति, तं ताम् अहं स्वीकरोमि. लेखनीं, यां लेखनीं भवती आनीतवती, ताम् अहम् इच्छामि, स्वीकरोमि. यां शाटिकां भवती आनीतवती, ताम् अहम् इच्छामि.
यां शाटिका मम भगिनी आनीतवती, मम आगच्छति वा भगिनी? न आगच्छति.
किम् आगच्छति?
यां, ओके, मम शुनकं जस्ट् भगिनी आनीतवती. यां शाटिकां भगिनी आनीतवती, ता भगिनी न भगिनी अल्सो
भवान्
यां शाटिकां भवती आनीतवती, भवती आनीतवती, ताम् अहम् इच्छामि.
मम पुत्रं शाटिकाम् आनीतवान्, पुत्रं शाटिकाम् आनीतवान्, पति शाटिकाम् आनीतवान. यां पुत्र यां शाटिकाम् आनीतवान्, तं ताम् ताम् अहम् इच्छामि.
पुत्र ओन्लि पुत्र कम्स् मम विल् नाट् कम्.
नो एनिथिङ्ग् यु केन् यूस् एनिथिङ्ग्. किं वदामि, द्वितीयविभक्त्यां याम् आगच्छति लैक् जो शाटिका मेरे पुत्र लेके आया, अहम् ऐ लैक् देट् ओर् देट्स् वाट् ऐ वाण्ट्. पुत्र अनीतवान्, पुत्रः अनीतवान्. यां शाटिका द्वितीयविभक्ति यां, तत् जो शाटिका लेके आया देट्. अस्तु, सङ्गीता भगिनी कृपया एकं वाक्यं वदतु. छुरिका छुरिका उपयुज्य छुरिका एनिथिङ्ग् आफ्टर् देट्. सङ्गीता भगिनी कुत्र गतवती? नास्ति. अस्तु, ज्योत्स्ना भगिनी कृपया वदतु. छुरिका यां छुरिका
ट्राय भगिनी यां छुरिकां थालिका थालिके अस्ति अहं
छुरिकाया खादामि.
छुरिकाया खादामि
तां छुरिकायां तां क्षम्यतां तया ऐ थिङ्क्
अहं पचामि देन् ऐ विल् कुक् पचामि.
द्वितीयविभक्ति उपयुज्य तम् आनयतु ताम् आनयतु. यं यां छुरिकां पेटिकायाम् अस्ति ताम् आनयतु. और् इफ्
यां छुरिकां भवती कर्तयति ताम् अहं गृह्णामि.
हा, ताम् अहं गृह्णामि. सविता भगिनी कूपी
कूपी यां कूपी
कूपीं
कूपीं
द्वितीयविभक्ति अस्ति न
द्वितीयविभक्ति कूपीम् आगच्छति वा द्वितीयविभक्ति?
नदी नदी अस्ति. भवती जानाति वा कूपी कूपीं
कूपीं यां कूपीं
गौरी न श्रूयते भगिनि, न श्रूयते.
सोरि सोरि, म्यूट् कृतवती, क्षम्यतां. यां कूपीं वर्णं नीलः ताम् अहम् आनयति ताम् अहम् आनयामि
ताम् अहम् आनयामि आनीतवती ताम् समीचीनमेव. हा, समीचीनं, बहु समीचीनं. यां कूपीं नीलवर्णम् अस्ति तामहम् आनवती आनीतवती, समीचीनम्. अस्तु, हेमा भगिनी कृपया प्रयत्नं करोतु.
ओके, भवती शब्दाः ददाति?
शब्दं हा, शब्दं ददामि. जवनिका
जवनिका
जवनिका कर्टन्स् कर्टन्
जवनिका एण्ड्
एकमेव
ऐ केन् से एनिथिङ्ग् वित् जवनिका. ओके, यां जवनिका रक्ता अस्ति ने सोरि यां जवनिका मम भगिनी क्रीडितवती ताम् अहम् इच्छामि.
यां जवनिकां मम भगिनी आनीतवती तामहम्
इच्छामि.
समीचीनं. परमेश्वर महोदय कृपया द्वितीयविभक्त्या उपयुज्य एकं वाक्यं वदतु. यं यां तां और् यं तम्. अस्तु, अहं शब्दं ददामि. गन्धवर्तिका यां ताम्
गन्धवर्तिका इत्युक्ते टूथ् ब्रश्
धूप् गन्धवर्तिका दट् वी बाय्
अगरबत्ति. यां गन्धवर्धिकां गन्धवर्धिकां गन्धः अधिकमस्ति तां ज्वालयतु.
समीचीनं. यां गन्धवर्धिकां गन्धम् अधिकमस्ति तां ज्वालयतु. समीचीनम्. अग्रे गच्छामः. येन
महोदय महोदय एकं वाक्यं वदामि कृपया शृणोतु.
वदतु.
यां छुरिकां भवती दत्तवती तां कटुता नास्ति.
समीचीनं.
सम्यक् वा?
समीचीनं. पूर्णतया नास्ति.
तीक्ष्णता शार्पनेस्.
तीक्ष्णता इस् इट् तीक्ष्णतः
तीक्ष्णता कटुता अपि तत्र
कटुता अपि
सम्यक्
कटुता अपि सम्यक् अस्ति.
कटुता
येन येन चषकेन येन हस्तेन येन आसन्देन येन दीपेन येन मार्गेन येन चमसेन येन दर्पणेन येन चमसेन येन नलेन येन सोपानमार्गेण येन कर्दीपेन येन दन्तकूर्चेन येन 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 चमसेन अहं खादितवती तेन चमसेन तेन चमसेन सम्यक् सम्यक् व्याकरणदृष्ट्या मम वाक्यं सम्यक् अस्ति किन्तु सम्यक् सांस्कृतिदृष्ट्या न सम्यक् अस्ति. त्वम् अपि तेन चमसेन खादतु. संस्कृतिदृष्ट्या वाक्यं सम्यक् अस्ति. येन चमसेन अहं खादितवती तेन चमसेन भवान् अपि खादतु. येन चषकेन येन चषकेन येन कार्यानेन येन पुस्तकेन यया मापिकाया गन्धवर्तिकाया कूपया छुरिकया येन नो क्षम्यतां यया छुरिकया यया दर्वया यया पत्रिकाया. किञ्चित् कोलाहलम् आगच्छति. अस्तु. येन क्षम्यतां यया छुरिकया यया समार्जनया यया समार्जनया एकं अत्र सर्वदा समान विभक्ति उपयुज्य वाक्यम् आवश्यकं नास्ति. समान विभक्ति यः द्वारे स्थितवान् यः द्वारे स्थितवान् सः मम अग्रजः. या दीर्घवेणी सा मम सखी. अत्र समानविभक्ति अत्र आगच्छति. येन येन चमसेन अहं खादितवती तं क्षालयतु। तत्र प्रथम अहं तृतीयविभक्ति उपयुज्वती। अनन्तरम् अहं द्वितीयविभक्ति तं क्षालयतु। येन चमसेन अहं खादितवती तं क्षालयतु। येन चषकेन अहं चायं पीतवती तं क्षालयतु, तम् आनयतु, तं तम् आनयतु। आसन्दः येन आसन्देन अहं कार्यं कृतवती तम् आनयतु, तम् सः रक्तवर्णम् अस्ति, सः काष्ठः अस्ति। सो येन तेन समानं विभक्ति एव उपयुज्य वाक्यं रचितुं शक्नुमः, भिन्नः विभक्ति अपि वाक्यं रचितुं शक्नुमः। यया सह गतवती यया सह अहं गतवती तं मम सखी। अहं यया सह गतवती सः मम सखी। सो लैक् इफ् ऐ वेण्ट् वित् सम्बडि शी इस् मै फ्रेण्ड्। यया सह गतवती सः मम सखी। तस्या सह मम सखी अपि गतवती। यया सह अहं गतवती तस्या सह मम सखी अपि गतवती। मम अनुजा अपि गतवान्। यया तया येन तेन। अवगतं किम्? अस्तु, अहं भगिनी कुत्र गतवती अहं न
जानामि। इण्टर्नेट् वास् नाट् वर्किङ्ग्, ऐ थाट् सी सेल् इस् नाट् वर्किङ्ग्, वेरस् इट् वास् इण्टर्नेट् इश्यू।
चिन्ता मास्तु,
द्वारं पिधाय आगतवती वा?
अस्तु, येन भवती येन उपयुज्य एकं वाक्यं रचतु। येन कोऽपि शब्दः स्वीकृत्य हा बोलि।
येन पुस्तकेन त्वं पठति तेन अहम् अपि पठितुम् इच्छामि।
येन पुस्तकेन
त्वं पठति त्वम् अभ्यासं करोति तेन अहम् अपि पठितुम् इच्छामि।
कृपया येन तृतीयविभक्ति अस्ति भगिनि, तृतीयविभक्ति येन पुस्तकेन कथं भवति? छुरिकाया येन क्षम्यतां, यया छुरिकाया भवती कर्तितवती तया छुरिकाया अहमपि कर्तयामि। यया छुरिकाया भवती कर्तितवती तया छुरिकाया अहमपि कर्तयामि। येन चषकेन भवान् जलं खादितवान् जल खादितवान् पीतवान् जलं पीतवान् तया चष तेन चषकेन अहमपि पिबामि. तृतीया विभक्ति भगिनी तत्र आगच्छति. येन येन हस्तेन अहं खादितवती येन हस्तेन अहं खादितवती तेन हस्तेन अहं
प्रक्षालयामि
प्रक्षालयामि. ओके वदतु अपि एकं वाक्यम्
अनन्तरम्
अनन्तरम् अस्तु. येन यया फलमस्ति येन येन यया समार्जिन्या समार्जिनी अस्ति यया समार्जिन्या अहं समार्जनं कृतवती यया समार्जनं कृतवती सा भङ्गम् अस्ति. यया छुरिकया यया दर्वया यया पत्रिका यया अग्निपेटिकया यया गन्धवर्तिका वर्तिकया. विम्लभगिनी वक्तुम् इच्छति वा?
यया सुगन्धवर्तिका अहम् उपयोगं कृतवती सा फिनिश्ड् टुटल् वन् सेट् आफ् वि ब्रिङ्ग् इन् इन् अ पेकेट् सो दट् गाट् फिनिश्ड्
सो प्रोब्लम् हियर् इस् यु आर् ओल्वेस् हेव् टु यु केन् मिक्स् द विभक्ति रैट् लैक् चतुर्थी विभक्ति अपि अस्ति यस्मै लेट् मि यस्मै य यस्यै इफ् स्त्रीलिङ्गम् अस्ति तत्र यस्यै ओ यस्मै यस्मात् यस्याः यस्य यस्याः यस्मिन् यस्यां यस्मिन् यस्यां कपाटिकायां क्षीरमस्ति क्षीरमस्ति तस्यां तस्यां यस्मिन् भक्तिः अस्ति तम् एव ध्यायतु येन गीतं गीयते तं जनाः सत्कुर्वन्ति भवान् यत् स्मरति तत् अहमपि वदामि यस्य नाम भवति उक्तवती यस्य नाम भवती उक्तवती तम् अहं जानामि यः विजयं प्राप्तवान् तस्मै परितोषिकं ददामि. अस्तु भगिनि वदतु. तृतीया विभक्ति प्रथमं
येन चषकेन अहं दुग्धं पिबामि तं तम् अत्र आनयतु
तम् आनयतु येन चषकेन अहं दुग्धं पिबामि तम् आनयतु चालनी चालन्या चालनी येन चालन्या अहं पक्वती तम् आनयतु पक्वती तम् आनयतु येन कर्तर्या अहं कर्तितवती तम् आनयतु येन घटेन अहं जलम् आनीतवती तम् आनयतु येन धनेन अहं फलानि क्रीतवती तं धनम् अहम् आपणिकः कृते आपणिकस्य कृते दत्तवती.
येन उपनेत्रेण
भगिनि भगिनि एकवारं लास्ट् सेण्टेन्स् एकवारं वदतु भगिनि. येन
वदामि तस्य अहं दत्तवती. यु केन् से
एनिथिङ्ग् येन धनं
येन धनेन अहं फलं क्रीतवती पुस्तकं क्रीतवती दूरवाणीं क्रीतवती अहं किञ्चित् धनेन क्रीतवती तस्यै ददातु भवतः कृते ददातु भवतै कृते ददातु. यू केन् फोर् एनि आपणिका आपणिकः अस्ति द शाप्कीपर् देन् आपणिकाय आपणिकाय ददातु.
येन उपनेत्रम् अहं धारयति तस्यै ददातु.
तस्यै ददातु. येन उपनेत्रम् अहं धृतवती तेन ददातु तस्यै ददातु. सो भिन्नं विभक्त्यां विभक्ति
अत्र धारयति आगच्छति वा या धृतवती आगच्छति वा? क्षम्यतां
धारयामि. भवती अहम् उक्तवती अतः धारयामि.
वदामि किम्
पुनः वदतु भगिनि. हा वदतु भगिनि.
येन वाहनेन अहं कार्यालयं गच्छामि तस्य वर्णं श्वेतः अस्ति.
बहु समीचीनं भगिनि बहु समीचीनं. तस्य वर्णः श्वेतः अस्ति.
येन कार्यानेन कार्याने
कार्यानेन अहं कार्यालयं गतवती और गच्छामि तस्य वर्णः श्वेतः अस्ति. सो येन चषकेन अहं पीतवती तस्य वर्णं श्वेतः अस्ति. एकं सविता भगिनी वदतु.
शब्दं किमपि शब्दं
किमपि शब्दं स्वीकृत्य भवती उक्तु वदतु.
येन हस्तघटी येन येन अत्र न आगच्छति हस्तघटी स्त्रीलिङ्गी
सम्मार्जनी.
येन सम्मार्जनी अहं
सम्मार्जन्या
सम्मार्जन्याम् अहं सम्मार्जन्यां भवती which you have used means what I have to say.
समार्जन्या येन समार्जन्यः मार्जनं कृतवती समार्जन्यः what have you do with समार्जनि samarjanis what do you call in the brush or the hoover or the jhadu or whatever you call
samarjanyam krutavati. तत् लघु भवति
लघु भवति लघु अस्ति
लघु अस्ति
लघु अस्ति. लेखनी लेखनी हेमा भगिनी लेखनी अस्ति वा भगिनी परमेश्वर महोदय
okay, no, I was not mute, I was muted. Okay. Yam lekhani aham kridami. Tasya lekhani, tasya lekhanya sah aham samyak likhami.
लेखन्या अहं सम्यक् लिखामि. तत्र सः न आगच्छति, सः केवल मित्रं सह कोऽपि अन्य सह मित्रेण सह तत्र आगच्छति. लेखन्या अहं लिखामि,
लेखन्या
लिखामि. येन तृतीया विभक्तिः अस्ति, तत्र चतुर्थी विभक्ति, चतुर्थी विभक्ति यस्मै, तस्मै, यस्मै
श्रीगुरुवे नमः.
यस्मै पुल्लिङ्ग् शब्दः अस्ति, 134. तस्मै, तस्यै, क्षम्यतां, तस्यै स्त्रीलिङ्ग् शब्दः अस्ति. यस्यै अहं, एकनिमिषः, धनिकः अस्ति, मित्रमस्ति, धनिकः मित्राय ददाति. यस्यै भवान् ददति, ददाति, क्षम्यतां, यस्यै भवान् ददाति सः मित्रः अस्ति, सः मित्रः अस्ति. धनिकः यस्यै धनं ददाति सः मित्रः अस्ति, मित्रमस्ति, सः मित्रमस्ति.
स्त्रीलिङ्गं,
ओ क्षम्यताम् क्षम्यताम्, यस्मै
भवान्
धनिकः यस्मै धनं ददाति सः मित्रम् अस्ति. माता क्षम्यतां, पुनः वदतु.
यस्मै धनं ददाति सः मित्रः अस्ति,
मित्रमस्ति न,
मित्रमस्ति.
माता पुत्राय पायसं ददाति, माता पुत्राय पायसं ददाति. सा यस्मै पायसं ददाति सः पुत्रः अस्ति, सः तस्याः पुत्रः अस्ति. माता पुत्राय पायसं ददाति, एकं वाक्यमस्ति, माता पुत्राय पायसं ददाति, माता पायसं ददाति, माता यस्मै पायसं ददाति सः पुत्रः अस्ति. नेता अस्ति, कृषिकः अस्ति, क्षेत्रं ददाति, नेता क्षेत्रं ददाति, नेता कृषिकाय क्षेत्रं ददाति. यः नेता यस्मै क्षेत्रं ददाति सः कृषिकः अस्ति. यस्मै यः नेता क्षेत्रं ददाति, नेता यस्मै क्षेत्रं ददाति सः कृषिकः अस्ति. भिक्षुकः अस्ति, जनः अस्ति. भिक्षुकः नाणकं, क्षम्यतां, जनः नाणकं ददाति. यस्मै जनः नाणकं ददाति सः भिक्षुकः अस्ति, सः वैद्यः अस्ति, रुग्णः अस्ति, वैद्यः अस्ति, रुग्णः अस्ति, औषधं ददाति. वैद्यः रुग्णाय औषधं ददाति. वैद्यः यस्मै औषधं ददाति सः रुग्णः अस्ति. अवगतं किम्? अग्रजः अस्ति, पितामहः अस्ति. अग्रजः पितामहै वस्त्रं ददाति. अग्रजः यस्यै वस्त्रं ददाति सः पितामहः अस्ति. अस्तु, सङ्गीता भगिनी वदतु एकं वाक्यं. वैद्यः वैद्यः अस्ति.
ओके,
वैद्यः अस्ति, ग्राहकः अस्ति.
ग्राहकः अस्ति,
ग्राहकः अस्ति, आपणिकः अस्ति. आपणिकः, ग्राहकः.
ओके, आपणकः औषधं न या नै.
ओके, पुनः विमला भगिनी, विमला भगिनी,
हा एकवारम् अहं मम वाक्यम् अन्यवाक्यमस्ति. यस्यै पेटिकातः सुगन्धवर्तिका अहं प्रतिदिनम् उपयोगं करोमि सा पेटिका रिक्ता अभवत्. सम्यक् वा?
दीर्घं वाक्यमस्ति भगिनी, पुनः वदतु.
यस्यै पेटिकातः सुगन्धवर्तिका अहं प्रतिदिनम् उपयोगं करोमि सा पेटिका.
भवती पञ्चमे विभक्ति उक्तवती, पञ्चमे विभक्ति उक्तवती भगिनी.
सुगन्धवर्तिका अहं प्रतिदिनम् उपयोगं करोमि.
शनैः शनैः वदतु कृपया.
यस्यै पेटिकातः सुगन्धवर्तिका,
यस्य कथम् आगच्छति तत्र? यस्य पेटिका और यस्य, यस्य तु पुल्लिङ्गः अस्ति, पेटिका स्त्रीलिङ्गः अस्ति.
यस्यै, यस्यै, यस्मै पुल्लिङ्ग,
यस्याः पेटिकायाः.
ओके, ओके, यस्याः पेटिकायाः सुगन्धवर्तिका अहं प्रतिदिनम् उपयोगं करोमि सा पेटिका रिक्ता अभवत्.
समीचीनं, समीचीनं, अस्तु. सविता भगिनी, किन्तु भगिनी विमला भगिनी चतुर्थी विभक्ति न उक्तवती, पञ्चमी विभक्ति उक्तवती.
अहं किञ्चित् कालं चिन्तयित्वा वदामि.
अस्तु, सविता भगिनी, अस्ति वा?
यस्य, यस्य पञ्चमी विभक्ति वा?
यस्याः
पञ्चमी,
यस्याः,
यस्याः, यस्याः षष्ठी विभक्ति नास्ति वा?
षष्ठी एवं पञ्चमी, पञ्चमी अपि अस्ति, षष्ठी अपि अस्ति. यस्याः,
यस्याः रिक्तम् अत्र रिक्त अभवत् तत्र एव.
भगिनी विमला भगिनी दीर्घं वाक्यं न वदतु, लघु लघु वाक्यं वदतु. अस्तु, सविता भगिनी वाक्यं वक्तुं शक्नोति वा?
अय्या
चतुर्थे विभक्त्या कृपया एकम् एकं वदतु.
ऐ वेण्ट् टु फस्ट् ओन्लि.
अहं पृच्छामि सविता भक्त्यां भवत्यां भवतीं पृच्छामि.
सीमा केन् टेल् पासिबल्
चतुर्थी विभक्ति. आपणे कः अस्ति, ग्राहकः अस्ति.
यस्मै आपणिकः वस्तुं क्रीणति तस्मै ग्राहकः, यस्मै आपणिकः वस्तुं ददाति ग्राहकः क्रीणाति.
यस्मै
तस्मै ग्राहकः
यस्मै आपणिकायै आपणिकायै आपणिकाय
आपणिकाय
हा आपणिकाय अग्रे
वस्तु
वस्तुं
ददाति
वस्तुं ददामि ओ ददाति भवती उक्तवती हा यस् यस्मै आपणिकाय वस्तुं ददामि
तस्मै ग्राहकाय क्रीणति
भगिनि यस्मै आपणिकाय यस्मै आपणिकाय समीचीनमस्ति यस्मै आपणिकाय जो जो शाप्कीपर् है फ्रोम् देट् शाप्कीपर् वस्तुं ददामि और् क्षम्यतां वस्तूनि और् वस्तु वस्तुं ददामि और् ददाति यस्मै ददाति सः और् तस्मै सः ग्राहकः अस्ति तत्र तस्मै ग्राहकः एकं कर्ता अस्ति सः अन्य कोऽपि अन्य पर्सन् अस्ति अन्य पुरुषः अस्ति तस्यै कृते सः एकं वस्तुं ददाति आपणिकः ग्राहकः आपणिकः ग्राहकाय वस्तुं ददाति और् ग्राहकः आपणिकाय वस्तुं ददाति एकम् एकम् एव ददाति आपणिकः आपणिकाय ग्राहकः आपणिकः ग्राहकाय वस्तुं ददाति ग्राहकः आपणिकाय धनं ददाति आपणिकः ग्राहकाय वस्तुं ददाति सो ग्राहकः यः यः यस्मै धनं ददाति सः आपणिकः अस्ति यस्मै ग्राहकः यस्मै धनं ददाति सः ग्राहकः अस्ति
यस्मै आपणकः वस्तुं ददाति तस्य नाम सुरेशः अस्ति
समीचीनम्
आपणिकौ आगच्छति आपणिकाय एव
आपणिकाय रामाय रामाय आपणिकाय ग्राहकाय
भगिनि एकं वाक्यं वदामि वा
एकम् एकं निमिषं भगिनि ग्राहकः अस्ति आपणिकः अस्ति ग्राहकः आपणिकाय धनं ददाति आपणिकः ग्राहकाय वस्तुं ददाति क्षीरं ददाति पुस्तकं ददाति ग्राहकः आपणिकः ग्राहकाय पुस्तकं ददाति और् आपणिकः यु केन् यूस् रामः ग्राहकः रामाय पुस्तकं ददाति सुरेशः रामाय पुस्तकं ददाति सो यः धनं ददाति सः आपणिकः अस्ति रमेशः अस्ति सो यस्यै ग्राहकः यस्यै धनं ददाति सः आपणिकः सः सुरेशः सः रामः ग्राहकः यस्यै धनं ददाति ग्राहकः यस्यै पुस्तकं ददाति और् रामः यस्यै धनं ददाति सः मम अनुजः इति चिन्तयतु रामः अस्ति रामः अस्ति सुरेशः अस्ति रामः सुरेशः च अस्ति. रामः सुरेशाय धनं ददाति. रामः सुरेशाय पुस्तकं ददाति. रामः सुरेशाय जलं ददाति. रामः सुरेशाय लेखनीं ददाति. रामः यस्मै लेखनीं ददाति. रामः यस्मै पुस्तकं ददाति. रामः यस्मै धनं ददाति. रामः यस्मै पुस्तकं ददाति. तस्य नाम सुरेशः. सः सुरेशः. तस्य नाम सुरेशः. सः मम अनुजः. सः मम मित्रम्. यस्य
ग्राहकः यस्मै आपणिकाय धनं ददाति सः बहु चतुरः अस्ति.
समीचीनम्. ओके. ओके. परमेश्वर महोदय वक्तुं शक्नोति वा?
आपः यस्मै ग्राहकाय वस्तूनि ददाति तस्मै निर्देशानपि ददाति.
तस्मै
उपदेशानपि ददाति. निर्देशः उपदेशः.
समीचीनं. समीचीनं. समीचीनमस्ति.
वैद्यः यस्मै भिक्षुकाय भोजनं ददाति तस्मै किञ्चित् धनमपि ददाति.
समीचीनं. हेमा भगिनि, किञ्चित् इण्टर्नेट् प्राब्लम् अस्ति, क्लेशः अस्ति वा?
आम् आम्.
अस्तु, अहं चिन्तितवती. ज्योत्स्न न सविता भगिनी प्रथमं वक्तु वदति वा? सविता भगिनी वक्तुं शक्नोति वा? वक्तुं शक्नोति वा?
किं पञ्चमी विभक्ति वा?
न छात्राः अस्ति. छात्रा अस्ति, शिक्षिका अस्ति, ओर् छात्रः अस्ति, अध्यापकः. पुल्लिङ्ग् शब्दे एव वदतु. छात्रः अस्ति, अध्यापिकः अस्ति. चतुर्थीविभक्त्यां कृपया वदतु. अध्यापकः छात्रम् उपदेशं ददाति.
छात्राः बोधनं करोति तस्मै प्रताडयति, ताडयति.
समीचीनम्. तस्मै ताडयति. गृहिणी अस्ति. पत्रवाहकः अस्ति. पत्रवाहकः
तस्मै ताडयति न भवति, तं ताडयति, तां ताडयति.
अहं चिन्तितवती किन्तु अहं न उक्तवती. ताडनमेव, ताडनम् अन्यभक्ति विभक्ति अस्ति. अहं धन्यवादः. पत्रवाहकः पत्रं ददाति. पत्रवाहकः गृहिण्यै पत्रं ददाति. पत्रवाहकः गृहिण्यै पत्रं ददाति. यस्यै पत्रवाहकः पत्रं ददाति सा मम पत्नी. पत्रवाहकः सा गृहिणी. सा मम पत्नी. सा मम भगिनी. सा मम अनुजा. पत्रवाहकः गृहिण्यै पत्रं ददाति. तस्मै तस्यै. अत्र तस्यै स्त्रीलिङ्गे तस्यै आगच्छति. गृहिणी, शिक्षिका, अनुजा, माता. सा मम माता. पत्रवाहकः यस्यै पत्रं ददाति सा मम माता. ज्योत्स्ना भगिनी वक्तुं शक्नोति वा?
I'll try, Bhagini. The fourth case, yeah?
Anything, pulling or strilling, whichever you feel comfortable.
Aham Pidalaya Bhojanam Dadami Saha Sundara Asti.
Aham?
I've the cat food and the cat is beautiful.
Aham Pidalaya
Bhojanam Dadami Saha Sundara Asti.
Yasmai Bidalaya Aham Bhojanam Dadami Sa Sundaraha Asti. Samichnam. Astu. Anya Gachamaha. Hema Bhagini Vaktum Shaknoti Va.
So Yasmai Balakaya Mata Katham Kathayati Saha Chaturaha Asti.
Samichnam. Yasmai Balaka Katham Kathayati Sa Chatura. Oh, Saha Chaturaha.
Saha Chaturaha Asti.
Saha Chaturaha Asti. So,
Aham Ekam Vakyam Vadami.
Vadatu Bhagini.
Yasyai Adhyapikaya Vayam Patam Shrunmaha Tasyaha Vani Maduram Asti.
Yasyai
Adhyapikaya.
Adhyapikaya Aham. Patham?
Vayam patham srunmaha. Tasyaha vani madhuram asti.
Samichnam. Dhanyavadah.
Yaha adhyapika. Yasme na agachati.
Bhagini, puna vadtu antim vakyam? Kim vad uktvati?
Vani madhuram asti. Tasyaha vani madhuram asti.
Tasyaha vani.
Pradham sentence.
Adhyapika. Yai adhyapika vayam patam srunmaha. Another sentence. Yasmai Duravani Ham Krutavati Saha Mama Pariveshi Asti.
Chaturthi Vibhakti Atra Nagachati. Atrti vipakti atra nagatvati agachati.
Aham api one sentence vakyam vadati.
Pratmam ekam vakyam vadatu chaturthi vibhaktyam eva ekam sarlam eva vakyam vadatu. Anantaram dirgam vakyam rachayatu. Sarlam vakyam vadatu.
Yasya chhatra bhavati pathyati.
जनाः अस्ति भक्षुकः अस्ति युवकः अस्ति वृद्धः अस्ति सखी महिला वैद्य रुग्णा पति पत्नी सो पति पत्न्यै आभूषणं यच्छति पतिः पत्न्यै आभूषणं यच्छति पतिः यस्यै आभूषणं यच्छति तस्याः नाम नीला तस्याः नाम सीता तस्याः नाम रमा पति पत्न्यै पत्न्यै आभूषणं यच्छति पति यस्यै आभूषणं यच्छति सा पत्नी ओके संगीता भगिनी वदतु एकं वाक्यं सरलं वाक्यं वदतु सरलं
हा सरलं बहु सरलं यस्य वैद्या अने ये वैद्या के लिए क्या होगा यह यह
वैद्य और वैद्या
वैद्य न यस्य वैद्या औषधं ददाति सः शीघ्रं आरोग्यं भवति आरोग्य भवति
यस्यै और यस्मै यस्यै और यस्य यस्मै औषधं ददाति सा
सः
और सः
ओके हाँ ओके आइदर ऑफ दैट सा शीघ्रं आरोग्य भवति
सा शीघ्रं आरोग्यं भवति
आरोग्यम् और आरोग्यम्
आरोग्यं भवति
जनकः यस्यै वस्त्रं जनकः यस्यै वस्त्रम् आनयति सा मम पुत्री
जनकः यस्यै वस्त्रम् आनयति सा मम पुत्री अस्तु विमला भगिन्याय कृते एकं वाक्यं वदामि श्रशुः अस्ति वधू अस्ति
आभरणं श्वशुः यस्यै आभरणम् आनयति सा श्वश्रू अस्ति
सा वधूः वधूः
सरि सरि यस्यै आभरणम् आनयति सा वधू अस्ति
ओके भक्तः अस्ति मूर्ति अस्ति कोऽपि वक्तुं शक्नोति वा कोऽपि अन्यकोऽपि सविता भगिनि भक्तः मूर्ति भक्तः मूर्ति
भक्तः मूर्ति यस्यै मूर्त्या मूर्ति पुल्लिङ्गः
चतुर्थी विभक्तिका रूपं कथं भवति मूर्ति
मूर्तये या मूर्तये नमति सः भक्तः
यः मूर्तये कथं भवति भगिनि अशुद्धमस्ति भक्तः मूर्तये पुष्पम् अर्पयति भक्तः मूर्तये पुष्पम् अर्पयति यस्मै मूर्तये भक्तः पुष्पम् अर्पयति यस्मै मूर्तये मूर्ति
क्षम्यतां भगिनि स्त्रीलिङ्ग भगिनि स्त्रीलिङ्ग
यस्मै मूर्तये यस्मै मूर्तये
भगिनि यस्यै आगच्छति खलु मूर्ति
क्षम्यताम् अहं चिन्तयामि यस्यै अहं वदामि यस्मै क्षम्यताम् अहं यस्यै मूर्तये पुष्पम् अर्पयति भक्तः यस्यै मूर्तये पुष्पम् अर्पयति सा सीता सा तस्याः नाम सीता मूर्तये पुष्पम् अर्पयति अस्तु अन्य कोऽपि वक्तुं इच्छति वा हेमा भगिनी वक्तुम् इच्छति वा न उक्तवती योजना भगिनी प्रथमवारम् आगतवती हेमा भगिनी इदानीं
यस्मै बालकाय अहं कुप्यामि सः मम पुत्रः यस्मै बालकाय अहं कुप्यामि सः मम पुत्रः
क्रोधः अस्ति अहं न जानामि क्रोधः
क्रोध अथवा कुप्य न क्रोधयामि क्रोधयामि सम्यक् अस्ति वा
क्रोधयामि तु सम्यक्
क्रोध्यति
क्रोध्यति
यस्मै बालकाय अहं क्रोधयामि सः मम पुत्र
क्रोध्यति क्रोध्यामि
क्रोध्यामि
क्रोध्यते
उभयपदी अस्ति उभयपदी तु अस्ति कृध्यते अपि आगतम् अस्तु अत्र भूमिः अस्ति भूमि मूर्ति धेनुः रज्जुः माता दधिः वारिः मधु वस्तु कृपया लिखतु मां प्रेषयतु अहं वदामि सारथि एकमेकं वाक्यं जस्ट् वाट्सप् गणे कृपया प्रेषयतु सारथि सेनापतिः प्रतिनिधिः
सारथि
शत्रु पिता नेता अधिवक्ता भूमिः सन्ततिः क्षमता मूर्तिः तनुः धेनुः
मन्दं मन्दं वाच् वदतु प्लीस् पिता नेता अधिवक्ता
अहं पुनः वदामि अनन्तरं मूर्तिः तनुः धेनुः रज्जुः माता दधि वारि मधु वस्तु पुनः वदामि सारथि सारथिः सेनापतिः प्रतिनिधिः वटुः शत्रुः दस्युः पिता नेता अधिवक्ता भूमिः सन्ततिः क्षम्यतां सन्ततिः मूर्तिः तनुः धेनुः रज्जुः माता दधि वारि मधु वस्तु
चतुर्थी विभक्ति यस्मै
चतुर्थी विभक्ति अप् टु चतुर्थी विभक्त्या विभक्तिपर्यन्तम्
प्रथमा टु चतुर्थी
प्रथमविभक्ति तः चतुर्थी विभक्तिपर्यन्तम् अस्तु अत्र यत् तत् यस्मिन् न कृतवती अत्र यस्मिन् पञ्चमी षष्टि एवं सप्तमी विभक्ति आगामिसप्ताहे कुर्मः भवती सम्यक् पुनः स्मरणम् अपि कुर्मः गतसप्ताहे वयं किञ्चित् सकर्मकधातुविषये पठितवन्तः सकर्मकधातवः अपि आत्मनेपदीधातवः परस्मैपदीधातवः उभयपदीधातवः वयं पठितवन्तः इदानीं वयं किञ्चित् वयम् एकं वाक्यं वदामि किञ्चित् पुनः स्मरणं पञ्चमी विभक्त्यां कुर्मः एकं वाक्यं ददामि हनीबी अस्ति मधुमक्खी अस्ति शहद् अस्ति मधु शहद् हनी अस्ति फ्लावर्स् अस्ति पुष्पाणि सन्ति पुष्पाणि सन्ति शहद् से मक्खी फूलों से शहद लेती है शहद की मक्खी फूलों से शहद लेती है हनी बी टेक्स द हनी फ्रॉम द फ्लावर्स वयं पंचमे विभक्ति विषय गत सप्ताह पठितवन्तः न चिन्तयामि
गतसप्ताहे नास्ति
पूर्वं पठितवन्तः मक्षिः अस्ति मधुमक्षिः अस्ति मधुमक्षि अस्ति मधुमक्खी फूलों से शहद लेती है
पुष्पेभ्यः मधु
आनयति शहद लेती है आनयति और स्वीकरोति गृह्णाति गृह्णाति मधुमक्षिका पुष्पेभ्यः मधु गृह्णाति स्वीकरोति और मधुमक्षिकाः पुष्पेभ्यः मधु स्वीकुर्वन्ति रामः अस्ति रामः अस्ति वशिष्ठः अस्ति वामदेवः अस्ति रामः वशिष्ठ राम वामदेव इन दोनों से प्रसाद चाहता है he wants the blessings from Vishishtah Vamdevah Ramah from Vishishtah Vamdevah he wants the blessings from Vishishtah and Ramah
Rama Vishisht Devat Prasadam Ichchayati
Ashirvadam Ichchayati
रामः इच्छति रामः इच्छति वशिष्ठः वामदेवः फ्रॉम बोथ ऑफ देम ही वांट्स द प्रसादम ही वांट्स द ब्लेसिंग
वशिष्ठतः वामदेवतः अपि आशिषम् इच्छति
रामः वशिष्ठ वामदेवाभ्यां
वशिष्ठ
प्रसादम इच्छति
समीचीनम् वशिष्ठ वामदेवाभ्यां प्रसादम् इच्छति आशीर्वादम् इच्छति रामः
वामदेवाभ्यां
वशिष्ठः अस्ति वामदेवः अस्ति इन दोनों से प्रसाद चाहता है सः वो वह नगर से फ्रॉम द सिटी गोज टू द विलेज ही गोज टू फ्रॉम द सिटी टू द विलेज
नगरतः ग्रामं गच्छति
गच्छति सिंपल
नगरतः ग्रामं गच्छति
सः नगरतः ग्रामं गच्छति और नगरात् ग्रामं गच्छति नगरात् ग्रामं गच्छति अस्तु वह दोनों आँखों से सूर्य को देखता है
नेत्रों
ही सीज विद बोथ आईज ही सीज द सन
भास्करम पश्यति नेत्रं भास्करम पश्यति
सः नेत्राभ्यां सूर्यं पश्यति.
Why it has to be panchami for that?
No, netrabhyam to panchami nasti tatra. Aham na vadami. Netrabhyam.
Netrabhyam is vibhakti.
Tritya vibhakti.
Achha, okay.
Saha netrabhyam suryam pashyati.
Netrani netrabhyam netri.
Bhagini, saha nayana dvayena suryam pashyati api vaktum shakyate khalu.
Okay. Correct. Samyak asti na.
नयनद्वयेन अहं न जानामि नयन
द्विनयनाः अस्ति
नेत्र नेत्रद्वयं नेत्रद्वयेन
द्वाभ्यां हो जाएगा नेत्रद्वाभ्यां हो जाएगा
नयनाभ्यां नेत्रभ्यां
नयनाभ्यां नेत्राभ्यां नेत्राभ्यां सूर्यं पश्यति अहं चिन्तयामि इति मन्ये
नेत्रद्वयेन अपि आगच्छति खलु
अहं चिन्तयामि व्याकरणदृष्ट्या तु सम्यक् दृश्यते मम किन्तु न दृष्टवती कुत्रापि अहं जानामि भवती किमर्थं पृष्टवती आम् अस्तु व्याकरणदृष्ट्या सम्यक् एव मम दृश्यते कोऽपि दोषः अस्ति तद् अहं न जानामि अस्तु अर्जुन वानों के साथ युद्ध करता है अर्जुनः fights with the arrows
arjun vaneh yuddham karoti
arjunah yuddham karoti
arjunah vanebhyah yuddham karoti vanaihi
तृतीयविभक्तिः रामैः अस्तु अन्य एकं वाक्यं ददामि कृष्णः कृप्णः अस्ति माङ्गने वालों को द्रव्य नहीं देता है कृपणः मांगने वालों को द्रव्य नहीं देता
याचकैः धनं न ददाति
कृप्णः न ददाति किं न ददाति कस्मै न ददाति
याचकेभ्यः
परमेश्वर महोदय पुनः वदतु कृपया
भिक्षुकेभ्यः याचकेभ्यः या भिक्षुकेभ्यः भिक्षुकः
भिक्षुकेभ्यः अहं न श्रुतवती सम्यक्तया अतः पृष्टवती कृप्णः याचकेभ्यः भिक्षुकेभ्यः द्रव्यं न ददाति पुत्रों को दो लड्डू देता है वह दो पुत्रों को लड्डू देता है वह पुत्रों को दो लड्डू देता है
लड्डू
दो पुत्रों पुत्राभ्यां मोदकौ ददाति तो पुत्रों को दो लड्डू देता है सो इट्स डबल बोथ पुत्राभ्यां चतुर्थी विभक्ति मोदकौ ददाति
If we use the word laddu, what would we say?
Modake, Bhagini, modake, modakam, nakumsakalingam.
Modakam, modake, modakam,
modakam, modakam, laddukam, nakumsakalingam.
Modake, samichanam. Atra eva, modake dadati. पुत्राभ्यां मोदके ददाति धन्यवाद भगिनी राजा ब्राह्मण को धन देता है
राजा ब्राह्मणाय धनं ददाति
ब्राह्मणे ब्राह्मणेभ्य धनं ददाति
ब्राह्मणाय एकं वचनं एकवचनमेव अस्ति अस्तु राजा ब्राह्मणाय वनं ददाति ओ क्षमं धनं ददाति नॉट वनं ददाति
वनं ददाति चेत् सम्यक् भवति वयं सर्वे गच्छामः भगिनि
वनमपि ग्राममपि ददाति पुरा राजा अस्तु अत्र एव समाप्यामः एकास्त मंत्र कृपया सर्व लीड एंड फॉलो कुर्मः यम वैदिका मंत्र त्रिशः पुराणाः
इन्द्रं यमं मातरिश्वानमाहुः वेदान्तिनो
lead and follow Bhagini lead and follow karenge we'll do lead and follow today adhya in yam vaidika mantra drisha purana
yam vaidika mantra drisha purana
indram yamam matrishva namahuh
इन्द्रं यमं मातरिश्वानमाहुः
वेदान्तिनो निर्वचनीयमेकम्
वेदान्तिनो निर्वचनीयमेकम्
यं ब्रह्मशब्देन विनिर्दिशन्ति
यं ब्रह्मशक्तेन विनिर्दिशन्ति
शैवायमीशं शिव इत्यवोचन्
शैवायमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरिति स्तुवन्ति
यं वैष्णवा विष्णुरिति स्तुवन्ति
बुद्धस्तथाहन्निति बौद्धजैनाः
बुद्धस्तथाहन्निति बौद्धजैनाः
सच्छ्रीयकालेति च सिक्खसन्तः
सच्छ्रीयकालेति च सिक्खसन्तः
शास्तेति केचित् प्रकृतिकुमारः
शास्त्रेति केचित् प्रकृतिकुमारः
स्वामीति मातेति पितेति भक्त्या
स्वामीति मातेति पितेति भक्त्या
यं प्रार्थयन्ते जगदीशतारम्
यं प्रार्थयन्ते जगदीशितारम्
सः एक एव प्रभुर्द्वितीयः
सः एक एव प्रभुर्द्वितीयः
धन्यवादः
धन्यवादः
पुनः मिलामः
मिलामः शुभरात्रि
शुभरात्रि महोदय शुभरात्रि
शुभरात्रि